श्री भगवानुवाच अनाश्रितकर्मफलम् कार्यं कर्म करोति यः स सन्यासी च योगी च न निरग्निर्न चाक्रियः।